अथ तृतीयोऽध्यायः साध्यसाधनविचारः। ॐ व्यास उवाच इत्याकर्ण्यवचः सौतम् प्रौचुस्ते परमर्षयः वेदान्तसार सर्वस्वम् पुराणम् श्रावयाद्भुतम् इति श्रुत्वा मुनीनाम् स वचनम् सुप्रहर्षितः संस्मरन् शङ्करम् सूतः प्रोवाच मुनिसत्तमान्। सूत उवाच शृण्वन्तु ऋषयः सर्वे स्मृत्वा शिवमनामयम् पुराणप्रवनम् शैवम् पुराणम् वेदसारजम् यत्र गीतम् त्रिकम् प्रीत्या भक्ति ज्ञान विरागकम् वेदान्तवेद्यम् तद्वस्तु विशेषेण प्रवर्णितम्। सूत उवाच शृण्वन्तु ऋषयः सर्वे पुराणम् वेदसारजम् पुरा कालेन महता कल्पेऽतीते पुनः पुनः अस्मिन्नुपस्थिते कल्पे प्रवृत्ते सृष्टिकर्मणि मुनीनाम् षट्कुलीनानाम् ब्रुवतामितरेतरम् इदम् परमिदम् नेति विवादः सुमहानभूत्। तेभिजग्मुर्विधातारम् ब्रह्मानम् प्रष्टुमव्ययम् वाग्भिर्विनय गर्भाभिः सर्वैः प्राञ्जलयो ब्रवन् त्वम् हि सर्वजगद्धाता सर्वकारणकारणम् कः पुमान् सर्वतत्त्वेभ्यः पुराणः परतः परः। ब्रह्मोवाच यतो वाचो निवर्तन्ते अप्राप्य मनसा सह यस्मात् सर्वमिदम् ब्रह्म विष्णुरुद्रेन्द्रपूर्वकम् साभूतेन्द्रियैः सर्वैः प्रथमम् सम्प्रसूयते। एष देवो महादेवः सर्वज्ञो जगदीश्वरः अयम् तु परया भक्त्या दृश्यते नान्यथा क्वचित्। रुद्रो हरिर्हरश्चैव तथान्ये च सुरेश्वराः भक्त्या परमया तस्य नित्यम् दर्शनकाङ्क्षिणः बहुनात्र किमुक्तेन शिवे भक्त्या विमुच्यते। प्रसादा देवता भक्तिः प्रसादो भक्तिसम्भवः यथेहाङ्कुरतो बीजम् बीजतो वा यथाङ्कुरः तस्मादीश प्रसादार्थम् यूयम् गत्वा भुवम् द्विजाः दीर्घदत्रम् समाकृध्वम् यूयम् वर्षसहस्रकम् अमुष्यैवाध्वरेशस्य शिवस्यैव प्रसादतः। वेदोक्तविद्यासारम् तु जायते साध्यसाधनम् मुनय ऊचुः अथ किम् परमम् साध्यम् किम् वा तत्साधनम् परम् साधकः कीदृशस्तत्र तदिदम् ब्रूहि तत्त्वतः। ब्रह्मोवाच साध्यम् शिवपदप्राप्तिसाधनम् तस्य सेवनम् साधकस्तत्प्रसादाद्यो नित्यादिफलनिःस्पृहः कर्म कृत्वा तु वेदोक्तम् तदर्पितमहाफलम् परमे च पदप्राप्तिः सालोक्यादिकम् क्रमाततः तत्तद्भक्त्यनुसारेण सर्वेषाम् परमम् फलम् तत्साधनम् बहुविधम् साक्षादीशेन बोधितम् संक्षिप्य तत्र वत्सारम् साधनम् प्रब्रवीम्यहम् श्रोत्रेण श्रवणम् तस्य वचसा कीर्तनम् तथा मनसा मननम् तस्य महासाधनमुच्यते श्रोतव्यः कीर्तितव्यश्च मन्तव्यश्च महेश्वरः इति श्रुतिः प्रमाणम् न साधनेनामुना परम् साध्यम् व्रज सर्वार्थसाधनैकपरायणः प्रत्यक्षम् चक्षुषा दृष्ट्वा तत्र लोकः प्रवर्तते अप्रत्यक्षम् हि सर्वत्र ज्ञात्वा श्रोत्रेण चेष्टते तस्मात् श्रवणमेवादौ श्रुत्वा गुरुमुखाद्भुतः ततः संसाधयेत् अन्यत् कीर्तनम् मननम् सुधीः क्रमान् मरणपर्यन्ते साधनेऽस्मिन् सुसाधिते शिवयोगो भवेत्तेन सालोक्यादिक्रमाचनैः सर्वाङ्गव्याधयः पश्चात् सर्वानन्दश्च लीयते अभ्यासात् क्लेशमेतद्वै पश्चात् आद्यन्तमङ्गलम् इति श्रीशिवमहापुराणे प्रथमायाम् विद्येश्वरसंहितायाम् साध्यसाधनकण्डे तृतीयोऽध्यायः। ॐ